एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा राष्ट्रपतिः रामचन्द्र पौडेलः निगदति नेपाल संवत्सरः नेपालस्य राष्ट्रियः मौलिकस्य संवत्सरो वर्तते शंखधर साखवा इत्यस्य राष्ट्रिय विभूतित्वेन घोषणायाः रजतवर्षस्य अवसरे शीतल निवासवर्तिनी राष्ट्रपति भवने ह्य आयोजिते कार्यक्रमे राष्ट्रपतिः पौडेलः स्वदेशस्य नाम्ने स्थापितः विश्वस्य एक एव संवत्सरोऽस्तीत्यतः नेपाल संवत्सरः सर्वेषां नेपालीनां गौरवमयी राष्ट्रिय सम्पदा वर्तते इति अभाषत राष्ट्रपतिः पौडेलः बहुभाषिकस्य बहुसांस्कृतिकस्य बहुजातीयस्य च नेपालदेशस्य सांस्कृतिकीं विविधताम् एकतायाः सूत्रे निबद्धुं नेपालसंवत्सरस्य भूमिका महत्वपूर्णा अस्तीति प्रावोचत् स्वार्जितां सम्पदं समाजस्य निर्धनेभ्य जनेभ्य प्रदत्तवान् शंखधर शाख्वा विश्वस्य कृते एव उदाहरणीयं प्रेरणास्रोतो वर्तते इति चर्चयन् राष्ट्रपतिः पौडेलः शाख्वाभिधस्य लोककल्याणकार्यात् प्रेरणाग्राह्या इति प्रावोचत् कार्यक्रमे बागमती प्रदेशस्य प्रमुख दीपक प्रसाद देवकोटा मुख्यमन्त्री बहादुर सिंह लामा बागमती प्रदेश पर्यटन संस्कृति सहकारी मन्त्री विमल छकुरी शंखधर साख्वा प्रतिष्ठानस्य अध्यक्ष ज्ञानलाल श्रेष्ठश्च नेपाल संवत्सरम् राजकीय व्यवहार वर्षत्वेन प्रयोक्तुम् बलम् दत्तवन्तः प्रधानमन्त्रिणा केपी शर्मा ओलिना पञ्चदश विश्वस्तरीय शरीर निर्माण शारीरिक क्रीडायाः एतत्कृष्टवर्षीय स्पर्धायां प्राप्त पदकः क्रीडकः सम्मानिताः सन्ति ह्य बालुवाटारवर्तिनी प्रधानमन्त्री निवासे प्रधानमन्त्री ओली वर्धापन प्रदान पुरस्सरं क्रीडकान् सममानयत् गत नोभेम्बर मासस्य पञ्चमात् दिवसात् एकादशं दिवसं यावत् मालदीव्स देशे सम्पन्नायाः प्रतियोगितायाः विभिन्न मापन समूहानां विभिन्न विधायां रूपेश शाही प्रज्वल शाक्यः रजनी शाक्य सोनाम मूलगुठी च द्वितीयं स्थानम् अधिगन्तुं सफलाः संवृत्ताः आसन् तदवसरे प्रधानमन्त्री ओली अस्याः क्रीडायाः पर्याप्त मात्रायां सम्भावनायाः सत्त्वात् राज्यस्य पक्षतः आवश्यक प्रोत्साहनं भविष्यतीति समाश्वासयत् गृहमन्त्री रमेश लेखकः गदति अस्यैव मार्गशीर्ष मासस्य षोडशे दिवसे सम्पत्स्यमानं स्थानीयस्तरस्य उपनिर्वाचनं स्वच्छे निष्पक्षे भइरहिते च वातावरणे सम्पादयितुं सर्वकारः प्रतिबद्धोऽस्ति धनगढ़ी स्थाने ह्य सुदूरपश्चिम प्रदेशस्तरीय सुरक्षा गोष्ठीम् उद्घाटयन् गृहमन्त्री लेखकः उपनिर्वाचनं शान्तिपूर्णे वातावरणे सम्पादयितुं सुरक्षा व्यवस्थायाः आवश्यक पूर्वकार्याय सुरक्षा निकाय प्रमुखान् निरदिशत् निर्वाचनायोगेन आसन्न स्थानीय स्तरस्य उपनिर्वाचनं स्वच्छं स्वतन्त्रं निष्पक्षं विश्वसनीयं च विधाय भयरहित वातावरणे सम्पादयितुं सुरक्षा व्यवस्थायाः प्रभावकारिण्यः सम्पादनाय गृहमन्त्रालयः निर्दिष्टो वर्तते निर्वाचन आयुक्तस्य सगुन शमशेर जवराभिधस्य संयोजकत्वे उपविष्टेन उच्चस्तरीय निर्वाचन सुरक्षा समितेः उपवेशेन स्थानीय स्तरस्य उपनिर्वाचन सम्बद्ध सुरक्षा योजनायाः क्रियान्वयनं विधाय सुरक्षा व्यवस्थां प्रभावकारिणीं विधातुं गृहमन्त्रालयः निर्दिष्टोऽस्ति आयोगेन मतदानस्य समये उपयुक्त सुरक्षा व्यवस्थां संस्थाप्य सार्वजनिक यातायात सेवायाः सञ्चालनाय व्यवस्थापनाय चापि निर्दिष्टमस्ति निर्वाचनायोगेन आसन्नोपनिर्वाचनस्य प्रयोजनाय सम्पर्क कक्षः सञ्चालितोऽस्ति मतदातृणां प्रश्नानां वेदनायाः समस्यानां च समाधानं विधाय मतदातृनामावल्याः निर्वाचनकार्यक्रमस्य प्रत्याशितायाः पञ्जीकरणस्य मतदानप्रक्रियायाश्च विषयेषु मतदातृभ्यः सूचनस्य उद्देश्येन ह्यस्तनदिवसात् सम्पर्ककक्षः सञ्चालितोऽस्ति इति आयोगस्य प्रवक्ता नीता पोखरेलः सूचितवती प्रातः सप्तवादनात् सायं सप्तवादनं यावत् सञ्चाल्यमाने सम्पर्ककक्षे एकम् एकम् शून्यम् द्वे चेति अङ्केषु सम्पर्कम् कृत्वा उपनिर्वाचनस्य विषये स्वस्य जिज्ञासाम् उपस्थापयितुम् आयोगेन सर्वे सम्बद्धजनाः अनुरुद्धाः सन्ति। प्रधानमन्त्रिणा केपी शर्मा ओलिना सह अस्ट्रेलिया देशस्य राजदूतेन लिन जोन्स्टन इत्यनेन मेलवार्ता विहिता अस्ति। तदवसरे अनयोर्मध्ये नेपालस्य अस्ट्रेलिया देशस्य च सम्बन्धस्य पारस्परिकस्य हितस्य अभिरुचिश्च विषयेषु विमृष्टमिति प्रधानमन्त्री मन्त्रिपरिषदः कार्यालयेन ज्ञापितं वर्तते। नेपाल अस्ट्रेलिया देशयोः मध्ये चतुष्षष्टिः वर्षेभ्यः पूर्वं कूटनैतिक सम्बन्धः स्थापितः आसीत्। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः निगदति मासाभ्यन्तरे सर्वविधानाम् औषधानां मूल्यस्य समायोजनं विधास्यते। पर्वत चिकित्सालयस्य निरीक्षणं विदधानः मन्त्री पौडेलः औषधेषु औषधव्यवसायिभिः औषध निर्माण संस्थाभिश्च विधीयमानां स्वेच्छाचारितां नियमयितुं मूल्य समायोजनं विधास्यते इति अभाषत। तदवसरे मन्त्री पौडेलः मूल्य समायोजनस्य पूर्वकार्यम् अन्तिमे चरणे प्राप्तमस्ति इति असूचयत्। मन्त्री पौडेलः नागरिकेभ्यः सुलभतया गुणस्तरीयं स्वास्थ्य सौविध्यं प्रदातुं सर्वकारः प्रतिबद्धोऽस्ति इति अवोचत्। भक्तपुरस्य अर्बुद चिकित्सालयेन चतुर्दश वर्षेभ्य न्यूनवर्षाणां वयस्कानां बालबालिकानां अर्बुद रोगस्य निःशुल्कम् उपचार सेवा प्रारब्धा अस्ति। चिकित्सालयेन अस्यैव मार्गशीर्ष मासस्य द्वितीय दिवसात् चतुर्दश वर्षेभ्य न्यूनवर्षाणां वयस्कानां बालबालिकानां अर्बुद रोगस्य सम्पूर्ण उपचार निःशुल्कं प्रारब्धोऽस्ति इति चिकित्सालयस्य निमित्त कार्यकारी निर्देशक डाक्टर उज्ज्वल चालिसे अज्ञापयत्। स्वास्थ्य जनसंख्या मन्त्रिणा प्रदीप पौडेलेन सर्वकारीय चिकित्सालयेषु चतुर्दश वर्षेभ्य न्यून वयसां बालबालिकानां अर्बुद रोगस्य उपचारं निःशुल्कं विधातुं कार्तिक मासस्य एकादशे दिवसे मन्त्रिस्तरीय निर्णयस्य विधानस्य पश्चात् चिकित्सालयेन निर्णयोऽयं क्रियान्वयने आनीतो वर्तते। सर्वकारेण सर्वकारीय चिकित्सालयेषु भक्तपुरस्य अर्बुद चिकित्सालये, काष्ठमण्डपस्य कान्ति बाल चिकित्सालये, चितवनस्य बीपी कोइराला स्मृत्यर्बुद चिकित्सालये च एतादृशीं सेवां निःशुल्कतया विधातुं निर्णीतम् आसीत्। गताश्विन मासस्य एकादश द्वादशयोः दिवसयोः आराष्ट्रम् अविरल वृष्ट्या सहैव दूरापन्नेन जलविप्लवेन भूस्खलनेन च ऊर्जः सेचन क्षेत्रयोः त्रयोदशाब्जेभ्य अपि अधिकानां रूप्यकाणां क्षतिः सम्भूता अस्ति। ऊर्जो जलस्रोत सेचन मन्त्रालयस्य मन्त्रिस्तरीयात् निर्णयात् गताश्विन मासस्य चतुर्दशे दिवसे संघटितया समित्या ह्यः ऊर्जो जलस्रोत सेचन मन्त्रिणः दीपक खड्काभितस्य समक्षं प्रस्तुते प्रतिवेदने आराष्ट्रं दूरापन्नहि जलविप्लव भूस्खलनहि जलविद्युति तटबन्धेषु सेचने प्रसारणमार्गेषु च त्रयोदशाब्जेभ्य अपि अधिकानां रूप्यकाणां क्षतिः सम्भूता अस्ति इति उल्लिखितं वर्तते। डडेलधुरा जनपदस्य परशुराम नगरपालिकायाः नवम ओडा क्षेत्रस्य लिप्नास्थाने जीपयानस्य दुर्घटनायां द्वौ जनौ मृतौ स्तः। कञ्चनपुरस्य दैजीस्थानात् परशुराम नगरपालिकां प्रति प्रस्थीयमानस्य जीपयानस्य दुर्घटनायां परशुराम नगरपालिकायाः एकादश ओडा क्षेत्रस्य सलेतास्थानस्य चत्वारिंशत् वर्षीया मोतीदेवी सार्की, आलिताल ग्रामपालिकायाः सप्तम ओडा क्षेत्रस्य अष्टात्रिंशत् वर्षीया धनादेवी बुढा च मृते इति डडेलधुरा जनपद प्रहरी कार्यालयेन ज्ञापितम् अस्ति।